दशमोऽध्यायः शुम्भवद् ध्यानम्। ॐ उत्तप्त हेम रुचिराङ् रविचन्द्रवह्निनेत्राङ् धनुश्शरयुताङ्कुश पाशशूलम् रम्यैर्भुजैश्च दधतीं शिवशक्तिरूपाङ् कामेश्वरीं हृदि भजाम धृतेन्दुलेखाम्। ॐ ऋषिरुवाच निशुम्भं निहतं दृष्ट्वा भ्रातरं प्राणसम्मितं हन्यमानं बलं चैव शुम्भः क्रुद्धो ब्रवीत्वचः बलाबले पादुष्टे तं मा दुर्गे गर्वमावह अन्यासां बलमाश्रित्य युद्धसे याति मानिनि एकैवाहं जगत्यत्र द्वितीया का मम परा पश्यैता दुष्टमय्येव सन्त्यो मद्युभूतयः। ततः समस्तास्ता देव्यो ब्रह्माणि प्रमुखालयं तस्या देवास्तनो जग्मुरेकैवासी तदाम्बिका। देव्योवाच अहमभिभूत्या बहुभिः रूपैर्यदा स्थिता तत्संहृतं मयैकैव तिष्ठाम्याजौ स्थिरो भव। ऋषिरुवाच ततः प्रवृते युद्धं दिव्याः शुम्भस्य चोभयोः पश्यतां सर्वदेवानां सुराणां च दारुणं स्वरवर्षैः हसितैः शस्त्रैस्तथास्त्रैश्चैव दारुणैः तयोर्युद्धमभूद्भूयः सर्वलोकभयङ्करम्। दिव्यानस्त्राणि शतशो मुमुचे यान्यथाम्बिका वभञ्जतानि दैत्येन्द्रस्तत्प्रतिघातकर्तृभिः मुक्तानि तेन चास्त्राणि दिव्यानि परमेश्वरि बभञ्जलीलियैवोग्रहुङ्कारोच्चारणादिभिः। ततः सरस्वतीर्देवी माच्छादयत् सोऽसुरः सापि तत्कुपिता देवी धनुश्चिच्छेदचेषुभिः छिन्ने धनुषु दैत्येन्द्रस्तथा शक्तिमथा ददे चिच्छेददेवी चक्रेण तामप्यस्य करस्थितां। ततः खड्गमुपादाय शतचन्द्रं च भानुमत् अव्यधावत्तदा देवी दित्यानामधिपेश्वरः तस्यापतत एवाशु खड्गं चिच्छेदचण्डिका धनुर्मुक्तैः हसितैर्बाणैः शर्म चार्ककरामलम्। हताश्वः स तदा दित्यश्चिन्नधन्वा विसारथिः जग्राहमुद्गरं घोरमम्बिका निधनोद्यतः चिच्छेदापततस्तस्य मुद्गरं निशितैः शरैः तथा विशोभिधावत्तान् मुष्टिमुद्यम्य वेगवान्। स मुष्टिं पातयामास हृदये दित्यपुङ्गवः देव्यास्तं चापि सा देवी तलेनोरस्य ताडयत् तलप्रहार अभिहतो निपपातमहीतले। सौदित्यराजः सहसा पुनरेव तथोत्थितः उत्पत्य च प्रगृह्योच्चैर्देवीं गगनमास्थितः तत्रापि सा निराधारा युधे तेन चण्डिका। नियुद्धं खेतदादित्यश्चण्डिका च परस्परं चक्रतुः प्रथमं सिद्ध मुनिविस्मयकारकं ततो नियुद्धं सुचिरं कृत्वा तेनाम्बिका सह उत्पात्य भ्रामयामास चिक्षेपधरणीतले। शोषिप्तो धरणीं प्राप्य मुष्यमुद्यम्य वेगितः अव्यधावद दुष्टात्मा चण्डिका निधनेच्छया तमायान्तं ततो देवी सर्वदित्यजनेश्वरं जगत्याङ् पातयामास भित्त्वाशूलेन वक्षसि। स गतासुः पपातोर्भ्यां देवी शूलाग्रविच्छतः चालयन् सकलां पृथिवीं साब्धिदीपां सपर्वतां। ततः प्रसन्नम् अखिलं हते तस्मिन् दुरात्मनि जगत्स्वास्थम् अतीवाप् निर्मलं चाभवन्नभः। उत्पातमेघाः शोल्का ये प्रागा संस्ते शमं ययुः सरितो मार्गवाहिन्यस्तथास तत्र पातिते ततो देवगणाः सर्वे हर्षनिर्भरमानसाः बभूवुर्निहते तस्मिन् गन्धर्वाललितं जगुः अवादिनस्तथैवान्ये नानृतुश्चाप्सरोगणाः बभुः पूण्यास्तथा वाताः सुप्रभो भूद्दिवाकरः जज्जलुश्चाग्नयः शान्ताः शान्तादिग्जनितस्वनाः ॐ इति श्रीमार्कण्डेय पुराणे सावर्णिके मन्वन्तरे देवी महात्मये शुम्भवधो नाम दशमोऽध्यायः।